श्रीहयग्रीवस्तोत्रम् श्रीमान् वेङ्कटनाथार्य कवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम् आधारम् सर्वविद्यानाम् अयग्रीवमुपास्महे ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम् आधारम् सर्वविद्यानाम् हयग्रीवमुपास्महे स्वतः सिद्धम् शुद्धस्फटिकमणिभूभृत्प्रतिभटम् सुदासद्रीचीभिर्द्युतिभिरवदातत्त्रिभुवनम् अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलम् हताशेषावद्यम् हयवदनमीडीमहिमहः समाहारः साम्नाम् प्रतिपदमृचाम् धामयजुषा लयः प्रत्यूहानाम् लहरिविदतिर्बोधजलदेः कथाधर्पक्षुभ्यत्कथककुलकोलाहलभवम् हरद्वन्तर्ध्वान्तम् हयवदनहेषाहलहलः प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा वक्त्रीवेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः विशुद्धविज्ञानघनस्वरूपम् विज्ञानविश्राणनबद्धदीक्षम् दयानिधिम् देहभृताम् शरण्यम् देवम् हयग्रीवमहम् प्रपद्ये अपौरुषेयैरपि वाक्प्रपञ्चैः अद्यापि ते भूतिमदृष्टपारा सुवन्नगम् मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासनधर्मपत्नी व्यासादयोऽपि व्यपदेश्य वाचः स्फुरन्ति सर्वे तव शक्तिलेशैः मन्दो भविष्यन्नियतम् विरिञ्चः वाचाम् निधे वञ्चितभागधेयः दैत्यापनीताम् दययैव भूयोऽपि अध्यापयिष्यो निगमान्न चेत्त्वम् वितर्कडोलाम् व्यवधूय सत्त्वे बृहस्पतिम् वर्तयसे यतस्त्वम् तेनैव देवत्रिदशेश्वराणाम् अस्पृष्टडोलायितमाधिराज्यम् अग्नौ समित्तार्चिषि सप्ततन्तोः आतस्थिवान्मन्त्रमयम् शरीरम् अखण्डसारैरविषाम् प्रदानैः आप्यायनम् व्योम सदाम् विदत्से यन्मूलमीदृक्प्रतिभाति तत्त्वम् यामूलमाम्नाय महाद्रुमाणा तत्त्वेन जानन्ति विशुद्धसत्त्वाः तामक्षरामक्षरमातृकान्ते अव्याकृताद्व्याकृतवानसि त्वम् नामानि रूपाणि च यानि पूर्वम् शंसन्ति तेषाम् चरमाम् प्रतिष्ठा वागीश्वरत्वाम् त्वदुपज्ञवाचः मुग्धेन्दुनिष्यन्दविलोभनीया मूर्तिम् तवानन्दसुधा प्रसूतिम् विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः मनोगतम् पश्यति यः सदा त्वाम् मनीषिणाम् मानसराजहंसम् स्वयम्पुरो भावविवादभाजः किं कुर्वते तस्य गिरो यतार्हम् अपि क्षणार्धम् कलयन्ति ये त्वा आप्लावयन्तम् विशदैर्मयूखैः वाचाम् प्रवाहैरनिवारितैस्ते मन्दाकिनीम् मन्दयितुम् क्षमन्ते स्वामिन् भवध्यानसुदाभिषेकात् वहन्ति धन्याः पुलकानुबन्धम् अलक्षिते क्वापि निरूढमूलम् अङ्गेष्विवानन्दथुमङ्कुरन्तम् स्वामिन् प्रतीचा हृदयेन धन्याः त्वध्यानचन्द्रोदयवर्धमानम् अमान्तमानन्दपयोधिमन्तः पयोभिरक्ष्णाम् परिवाहयन्ति स्वैरानुभावास्त्वदधीनभावाः समृद्धवीर्यास्त्वदनुग्रहेण विपश्चितो नाथ तरन्ति माया वैहारिकीम् मोहनपिञ्चिकान्ते प्राङ्निर्मितानाम् तपसाम् विपाकाः प्रत्यग्रनिःश्रेयससम्पदो मे समेधिशीरम् स्तव पादपद्मे सङ्कल्पचिन्तामणयः प्रणामाः विलुप्तमूर्धन्यलिपिक्रमाणा सुरेन्द्रचूडापदलालितानाम् त्वदङ्घ्रिराजीवरजः कणानाम् भूयान् प्रसादो मयिनाथ भूयात् परिस्फुरन्नो पुरचित्रभानुप्रकाशनिर्धूततमोऽनुषङ्गा पदद्वयीन्ते परिचिन्महेन्दः प्रबोधराजीव विभातसन्ध्या त्वत्किङ्करालङ्करणोचितानाम् त्वयैव कल्पान्तरपालितानाम् मञ्जुप्रणादम् मणिनोपुरम् ते मञ्जूषिकाम् वेदगिराम् प्रतीमः सञ्चिन्तयामि प्रतिभादशास्थान् सन्धुक्षयन्तम् समयप्रदीपान् विज्ञानकल्पद्रुमपल्लवाभम् व्याख्यानमुद्रामधुरम् करन्ते चित्ते करोमि स्फुरिताक्षमालम् सव्येतरम् नाथकरम् त्वदीयम् ज्ञानामृतोदञ्चनलम् पटानाम् लीलाघटीयन्त्रमिवाश्रितानाम् प्रबोधसिन्धोररुणैः प्रकाशैः प्रवाळशङ्खातमिवोद्वहन्तम् विभावये देव सपुस्तकम् ते वामम् करम् दक्षिणमाश्रितानाम् तमांसि भित्त्वा विशदैर्मयूखैः सम्प्रीणयन्तम् विदुषश्चकोरान् निशामये त्वाम् नवपुण्डरीके शरद्धने चन्द्रमिव स्फुरन्तम् दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः कटाक्षाः श्रोत्रेषु पुंसामृतम् क्षरन्तीम् सरस्वतीम् संश्रितकामधेनुम् विशेषवित्पारिषदेषु नाथ विदग्धगोष्ठीसमराङ्गणेषु जिगीषतो मे कवितार्किकेन्द्रान् जिग्वाग्रसिंहासनमभ्युपेयाः त्वाम् चिन्तयन् त्वन्मयताम् प्रपन्नः त्वामुद्गृणन् शब्दमयेन धाम्ना स्वामिन् समाजेषु समेधिशीय स्वच्छन्दवादाहवबद्धशूरः नानाविधानामगतिः कलानाम् न चापि तीर्थेषु कृतावतारः ध्रुवम् तवानाथ परिग्रहायाः नवम् नवम् पात्रमहम् दयायाः अकम्पनीयान्यपनीतिभेदैः अलङ्कृशीरन् हृदयम् मदीयम् शङ्काकलङ्कापहमोज्ज्वलानि तत्त्वानि संयञ्चि तव प्रसादात् व्याख्यामुद्राम् करसरसिजैः पुस्तकम् शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् माम् आविर्भूयादनगमहिमा मानसे वागधीशः व्याख्यामुद्राम् करसरसिजैः पुस्तकम् शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् माम् आविर्भूयादनगमहिमा मानसे वागधीशः वागर्थसिद्धिहेतोः पठतः यग्रीवसंस्तुतिम् भक्त्या कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेता वागर्थसिद्धिहेतोः पठतः यग्रीवसंस्तुतिम् भक्त्या कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेता कवितार्किकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः।